अग्ने सर्धम् तमागणम् पृष्टम् रुक्मेभिरञ्जिभिः दिशो अद्य मरुतामवह्वये दिवश्चेद्रोचनादधि यथा चिन्मन्यासे हृदा ददृन्मे जग्मुरासः एतेने दृष्टम् भवनान्यागमन्तान् वर्धभीमसम् नृशः मीनुष्णादेव पृथिवीपराहतामदन्त्येत्यस्मदा ऋक्षो नवो मरुतस्य मी वा नमो दुर्ध्रो गौरीव भीमयोः नियेरिणन्त्यो च सा वृथा गावो न दुर्धुराः अस्मानञ्चित् स्वर्याम् पर्वतम् गिरिम् रक्षावयन्ति यामभिः उत्तिष्ठ नूनवेगाम् सोमये स्वमुक्षितानाम् मनुताम् पुरुतमपूर्यङ्गवाम् सर्गामिव ह्वये युङ्धाम् हिरुषीरथे युङ्धम् रथेषु रोहिताः युङ्धम् गरी अजिराधिरिवोढवे बहिष्ठाधिरिवोढवे उदस्य भाज्य ऋणस्तु विश्वनि दिगस्मधायदर्शदः मा भोजामेषु मरुतश्चिरङ्गरत्नरथेषु चोदज रथन्नमारुतम् वयम् श्रवस्युमाहूवामहे आयस्मिन् तस्थौ शरणानि बिभ्रति सजा मरुत्सु रोदसी तम् वश्वर्धम् रथे शुभम् त्वेषम् वनस्युमाहूवे यस्मिन् सुजाता सुभगा महीयते सजा मरुत्सु मेलुषी।